महावेङ्कटेशं हरिं हरिं महोङ्काररूपं हरिं हरिं महादेव्यसं सेव्यरूपं सुरेशं महानन्दसन्दोहरूपं वेदरूपं महचेद्विलासं महासुन्दराङ्गं महाज्ञानदीपं भजे लोकनाथो नमस्मृधराय च शिवङ्कराय च नमस्मुभाय च शुभतमाय च शुभङ्कराय नम नित्यरूपं हरिं हरिं भजे लोकनाथं हरिं हरिं सर्वान्तरात्मकं सर्वयोगीश्वरं वेङ्कटाचलपतिं सकलमुनिसंस्तुतं पञ्चवेदात्मकं षड्जामगायकं सप्ताचलेश्वरं अष्टविधभासुरं नवरसगुणाकरं दिग्दिशशुभकरं एकादशोपेतं लोकनाथेश्वरं भक्तळिवशङ्करं नमतजनसेवकं दुर्जनविदाकरं सज्जनसुशोषकं भामिभवतारकं प्रकृतिहितकारकं भुवनभव्यभवनायकं भाग्यात्मकं धनेशं जनेशं महेशं रमेशं भूतेशं महीशं जयेशं राजेशं महाविबुधाष्टाक्षरी मन्त्ररूपं महाज्ञानज्ञानाधिवासं सुगात्रौ नमोक्षराय च क्षरतराय च क्षरतमाय च ज्ञानाय च गम्याय च ध्येयाय च इन्द्राय च निर्निद्राय च महावेङ्कटेशं हरिं हरिं भजे लोकनाथं हरिं हरिं ढं 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 कापटाह नवनाट्यानुकारणं तद्धिम्मि तकधिम्मि दिद्धिम्मि धिमि धिम्मि चतुरदधि संव्याप्त विजदिव्यवैभवम् ओंकार ह्रींकार सींकार ऐंकार शुभमंत्र पूजितं लोकनाथेश्वरं ऋग्वेदगात्रं यजुर्वेदगम्यं साम प्रगीतं अधर्वं वहन्तं पुराणादिलोक प्रसिद्धं विशुद्धं लोकैकवंद्यं सुयुक्तं सुदीप्तं अकारं नकार तकारं सकारं यकार महाकार साकार रूपं महालोकपालं महापद्मनाभं महावेङ्कटेशं महाटाटहासं महावासुदेवं महाव्याप्तचिह्नं सुनेत्रं सुमित्रं शेषाद्रिवासं गरुडाद्रिनिलयं सिंहाचलेश्वरो वृषभाद्रिवासं वृषाद्रिसेव्यो महाभीमरूपं महाभानुतेजं सकलभूतात्मकं सकलसिंहात्मकं वैकुण्ठपुरमहाविश्वेश्वरं महापूर्णेश्वरं महाज्ञानेश्वरं ब्रह्मकाशीश्वरं पञ्चभूतात्मकं लोकनाथेश्वरं परं ज्योतिश्वरं वेङ्कटाधीश्वरं वेदपूर्णेश्वरं श्रीतिरुवेङ्कटाधीश्वरो अष्टदिक्षोभितं हरिवर्गनाशकं पद्मनाभेश्वरं सर्वार्थसाधकं श्रीवेङ्कटेश्वरं स्थितजनारक्षकम् अनाधिम् अमेयम् अजेयम् अचिन्त्यम् अमोघम् अपूर्वम् अनन्तम् अखण्डम् अनाधिम् अमेयम् अजेयम् अचिन्त्यम् अमोघम् अपूर्वम् अनन्तम् अखण्डम् तिरुवेङ्कटाचल संसेव्यमानम् कवचाय च नित्याय च रम्याय च भोग्याय च भव्याय च ज्ञानाय च ध्येयाय च दिव्याय च चन्द्राय च सेव्याय च चक्राय च रक्षाय च सूर्याय च श्रीतिरुमलपुरा दिव्यस्वरूपम्